येनाक्षरसमाम्नायम् अधिगम्यमहेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। ध्यायन् ध्यायम् परम् ब्रह्मस्मारम् स्मारम् गुरोर्गिरः सिद्धान्तकौमुदी व्याख्याम् कुर्मः प्रौढमनोरमाम्। नमः सर्वेभ्यः। अद्य प्रौढमनोरमायाम् अत्सन्धेः पुनरावर्तने द्वितीयः वर्गः, जून् मासस्य सप्तमः दिनाङ्कः। We'll start with Sanyogantasya Lopaha. Right? We covered the sutras from Ikornachi till Atah Parasvin Purva Vidho last time. And I think Napadanta doesn't have much except the Prakriya part of it, which you can look up from the previous slides. Let's start with Sanyogantasya Lopaha. If anybody wants to read out the Mula of it, any volunteers? Sanyogantasya Lopaha.
अलौक्यपरिभाषया इति भावः यत्तु विशेषणेन तदन्तमिति लाभात् संयोगस्य इत्येव सूत्रयितुम् उचितं, तथापि प्रत्येकं संयोगसंज्ञा इति पक्षे दृष्टकरोति इति आदौ लोपं वारयितुं संयोगवन्तौ यस्य इति द्विवचनान्तेन समासलाभार्थम् अन्तर्ग्रहणम् उक्तौ ति उपसर्जनानाम् एकत्वसंख्या
औत्सर्गिकी
विद्वादिकं तु प्रयत्नमध्यम् इति भाष्ये स्थितम्। जनप्रतिषेधो वक्तव्यः, जनः इति वाचनिकं, यद्वा वाच्यो व्याख्येयः, व्याख्या च वेदा, जलो जलि इत्यतो जलग्रहणम् अपकृष्य जलः एव लोपो विधीयते इति अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यणो असिद्धत्वम् इति वा कार्यकालपक्षाद् न च ज्ञाजानान्तर्ये भविष्यत्तत्वतिः इति निषेधः। तस्य अनित्यत्वात् उत्तरकालप्रवृत्ते लोपे अजानान्तर्यभावाच्च, तथा च वाचिकं संयोगान्तस्य लोपे जनप्रतिषेधः, न वा जलो लोपात् बहिरङ्गलक्षणाद्वा इति। इह यथोद्देशपक्षे आद्यं वाचिकद्वयं, तृतीयं तु कार्यकालपक्षे इति विवेकः। यत्वास्तु वाचिकत्वतो वचनं प्रत्याख्यानप्रकारद्वयं तु वाच्यकृतः इति तन्निर्मूलं मतभेदे प्रमाण अभावात् यदप्याहुः कलत्रं साल्वं चाचक्षणः अदभ्रयते आद्यपक्षस्य एकरूप्यार्थं पूर्वं पूर्वम् अन्तरङ्गं परम्परं बहिरङ्गम् इति अल्लोप विलोपयोः असिद्धत्वस्य सुवचत्वात् अत एव स्वातन्त्र परिशिष्टे शुक्लयते इति शुक्ल इत्यादि इति उदाहृतम् वान्तयोः इति इति वान्तयोः इति ऊतो दुर्वारत्वात् न च स्थानिवत्वं कौ विधिं प्रति तन्निषेधात् विचि लोको विचि लोको व्योगलि इति लोकस्य प्रसङ्गात् च गिरिवेशं गिरिवेशमय गिरिवेशमयतेष्टु इति यणः प्रतिषेधार्थं वचनारम्भपक्षे गिरिवे इति उचितम्
संयोगान्तस्य लोपः. प्रथमः प्रश्नः संयोगान्तस्य इति किमर्थं संयोगस्य लोपः इत्येव उक्ते येन विधिस्तदन्तस्य इत्यनेन तदन्तस्य लोपः इति ज्ञायते. संयोगान्तस्य लोपः इति किमर्थम् इति तत्र संयोगस्य विषये एव पक्षद्वयमस्ति. हलोऽनन्तरास्संयोगः इति संयोगसंज्ञाविधायकं सूत्रम्. तत्र अज्भिः अव्यवहितानां हलां संयोगसंज्ञा विधीयते. प्रत्येकं हलः संयोगसंज्ञा भवति वा मिलितयोः द्वयोः हलोः संयोगसंज्ञा वा इति पक्षः. द्वावो विपक्षम् अङ्गीकृतौ. सो प्रायेण वयं मिलितयोः संयोगसंज्ञा इत्येव स्वीकुर्मः. किन्तु प्रत्येकं संयोगसंज्ञा इति पक्षे दृशत् करोति इत्यस्ति. दृशत् इति एकं पदं, करोति इति भिन्नं पदं. यदा संहिता अस्ति तदा तकारककारयोः संयोगः अस्ति. यदि प्रत्येकं तकारस्यापि संयोगसंज्ञा ककारस्यापि संयोगसंज्ञा तर्हि सः तकारः अन्ते अस्ति, पदमपि दृशत् इति पदं तस्य अन्ते तकारः अस्ति, सः संयोगसंज्ञकः. तदा केवलतकारस्य लोपः स्यात्. तादृशं न इष्यते. यत्र द्वयोरपि वर्णयोः द्वावपि वर्णौ एकस्मिन् पदे, वेन् बोत् द एण्टैर् संयोग, बोत् लेटर्स् कम्पोसिङ्ग् द संयोग प्रेसेण्ट् इन् अ सिङ्गल् वर्ड्, देन् द एण्डिङ्ग् आफ् दट् संयोग विल् बि डिलीटेड्. यत्र भिन्नयोः पदयोः हलौ हलौ संयुक्तौ तत्र लोपं वारयितुं संयोगान्तस्य इति विशिष्य अन्तशब्दः उक्तः. तत्र संयोगान्तस्य इति समासः संयोगौ अन्तौ यस्य पदस्य तत् संयोगान्तं तस्य लोपः इति. संयोगौ अन्तौ यस्य इति द्विवचनान्तेन समासः क्रियते. तदेव वृत्तौ इत्युक्ते न केवलं समासवृत्तौ, तद्धिते एकशेषे सर्वत्र उपसर्जनानाम् एकत्वसङ्ख्या उत्सर्गिः. सो यत्र प्रधानस्य तु संख्या ज्ञायते, यथा राजपुत्रौ राजपुत्रः राजपुत्रौ राजपुत्राः इत्युक्ते पुत्रः प्रधानः, राजा अप्रधानः. प्रधानस्य वचनं ज्ञायते, एकः वा द्वौ वा बहवः वा इति. राजपुत्रः पुत्रौ राजपुत्रौ राजपुत्राः इति. किन्तु तत्र राजा एकः वा बहवः वा न ज्ञायते. राज्ञः पुत्रो वा, राज्ञां पुत्रः न भवति, राजपुत्राः इत्यस्ति. राज्ञः पुत्रः राज्ञः पुत्राः, एकस्यैव राज्ञः बहवः पुत्राः वा अथवा राज्ञां पुत्राः बहूनां राज्ञां पुत्राः वा इति न ज्ञायते. तत्र किमुच्यते भाष्ये, एकवचनसङ्ख्या उत्सर्गिः, एकत्वसङ्ख्या. अतः उत्सर्गेण राज्ञः पुत्राः इत्येव छेदः. विल् बै डिफाल्ट् विल् स्प्लिट् वृत्ति इन् एकवचनम्. द्वित्वादिकं तु प्रयत्नलभ्यम्. ओन्ली वेर् दर् इस् एन् अडिशनल् एफोर्ट्, say by context, if there are many kings and they are being talked about, then we can assume that it is rajyam putraha. Or if there is some special effort, some special indicator of that bahutva, only then we can have dvitva or bahutva in the vritti. Otherwise by default it is ekavachana. So now here sanyogantasya atra antagrahanam vinapi तदन्तविधिना एव संयोगान्तस्य लोपः इत्यर्थे सिद्धे. पुनः पाणिनिः अन्तग्रहणं करोति, तेनैव ज्ञायते तत्र कश्चन विशेषः. कः विशेषः? संयोगौ अन्तौ यस्य इति द्विवचनान्तेन समासः कर्तुं शक्यते. तेन दृशत् करोति इत्यादौ लोपः न भवति. सो दट् वास् वाट् वी हेड् डिस्कस्ड्. देन् यणः प्रतिषेधो वक्तव्यः इस् द वार्तिक आन् संयोगान्तस्य लोपः. संयोगान्ते यण् वर्णः अस्ति चेत् तस्य लोपः न भवति. तत्र वार्तिकत्रयमस्ति, यणः प्रतिषेधो वाक्यः, नवाझलो लोपात् बहिरंग लक्षणात्वा त्रीणि त्रयः परिहाराः उक्ताः वार्तिककारेण. एकं तु वाचनिकतया प्रतिषेधः उच्यते, यणः प्रतिषेधो वक्तव्यः इति. द्वितीयम् अग्रिमे अग्रिमं सूत्रमस्ति झलो झलि, ततः झलः इति अपकर्षं कृत्वा झलः एव लोपः इत्युच्यते. अथवा अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यणः असिद्धत्वम्, यणादेशः क्रियते. यणः निमित्तम् अच् अन्यस्मिन् पदे अस्ति, सुधी उपास्यः. संयोगान्तस्य इत्यस्य तु तदेव पदं निमित्तं, पदस्य अन्ते यः संयोगः तस्य लोपः. अतः अन्तरङ्गः लोपः, बहिरङ्गः यण्. बहिरङ्गस्य यणः असिद्धत्वात् न भवति इति त्रेधा परिहारः उक्तः. आल् त्री आर् सेपरेट् आन्सर्स् टु द सेम् प्रोब्लम् गिवन् बै वार्तिककार. द सिद्धान्त इस् यण् वर्णस्य लोपः न भवति. कथं तत् साध्यते? वाचनिकेन प्रतिषेधेन, झलः अपकर्षात्, अथवा बहिरङ्गपरिभाषाम् आश्रित्य. बहिरङ्गपरिभाषाश्रयणे कार्यकालपक्षः आदर्तव्यः, बिकास् वन् आफ् द सूत्रस् दट् इस् संयोगान्तस्य लोपः लैज़् इन् द त्रिपादि. वि नो दट् परिभाषास् डु नाट् आपरेट् इन् द त्रिपादि इन् द यथोद्देशपक्ष. कार्यकालपक्षे एव त्रिपाद्यां परिभाषाणां प्रवृत्तिः भवति. अतः कार्यकालपक्षाश्रयणे बहिरङ्गपरिभाषया निर्वाहः, यथोद्देशपक्षाश्रयणे तु साक्षात् वाचनिकेन प्रतिषेधेन अथवा झलः अपकर्षात् निर्वाहः इति सिद्धान्तः. सो एकः पक्षः अस्ति, देर् इस् वन् लैन् हि सेस् वार्तिककृतः वचनं प्रत्याख्यानप्रकारद्वयं तु भाष्यकृतः. तद् वार्तिककार गेव् द वाचनिक प्रतिषेध, भाष्यकृता तु द्वेधा तस्य वार्तिकस्य प्रत्याख्यानमिति, तत् निर्मूलं मतभेदे प्रमाणाभावात्. सो देर् इस् नो एविडेन्स् देर् टु शो दट् the bhashyakara differed from the vartikakara. The vartikakara himself has suggested three ways: either having the vartika or having apakarsha of jhal or bahiranga lakshana paribhasha. Eshaha prathamah amshaha. Dvitiyah amshaha prakriya kaumudyam tasya vyakhyane kav kalat shal iti udaharanani diyante. Kavya kalatra shalva iti shabdabhyam iti pratipadikebhyaha निच् प्रत्ययं कृत्वा सः धातुर्भवति. पुनः तस्मात् क्विप् प्रत्ययः क्रियते, पुनः प्रातिपदिकसंज्ञा अस्ति. तदा णिचः लोपः भवति, पुनः अकारस्य लोपः. नेरनिटि इति णिचः लोपः, अतो लोपः इत्यनेन अकारस्य लोपः. ततः काव्य कलत्र शाल्व, सर्वत्र यण्वर्णः संयोगस्य अन्ते अस्ति, तस्य लोपः भवति इति दर्शितं व्याख्यायां, तद् असाधु. सो दोस् आर् राङ्ग्. पक्षत्रयेपि संयोगान्तलोपस्य दुर्लभत्वात्, बिकास् इफ् यु टेक् एनी आफ् द त्री वेस् विच् वार्तिककारः हस् टोल्ड्, यु के नाट् हाव् लोप देर्. ओके, सो बिकास् आफ् दट् दोस् एक्साम्पल्स् आर् राङ्ग्. हि आल्सो गिव्स् एक्साम्पल् फ्रोम् कातन्त्रपरिशिष्ट, वेर् शुक्ल शुक्ल इत्यत्र लकारः संयोगस्य अन्ते अस्ति, तस्य लोपः न कृतः. तेन सर्वत्र संयोगान्ते यदि यण् अस्ति, तस्य लोपः न भवति. सो दट् इस् वाट् हि सेस्. देर् इस् ओन्ली वन् केस् वेर् देर् इस् अ डिफरेन्स्. इफ् वाचनिकप्रतिषेधे अथवा झलः अपकर्षे कृते भेदः दृश्यते एकस्मिन्नेव पक्षे, वेर् देर् इस् एन् अनुनासिक अट् द एण्ड् आफ् अ संयोग. यणः प्रतिषेधो वक्तव्यः इति वाचनिकप्रतिषेधे किं भवति? यण्वर्णस्यैव प्रतिषेधः भवति. यदि अनुनासिकः अन्ते अस्ति, तर्हि लोपः भवति. झलो लोपः इति अपकर्षे कृते तु किं भवति? झल् वर्णस्यैव लोपः भवति. झलि अनुनासिकः नान्तर्भवति, न्यमगणनं झभन्य. अतः झलः लोपः इत्यपकर्षे कृते अनुनासिकस्य लोपः न भवति. यणः प्रतिषेधो वक्तव्यः इति वाचनिके प्रतिषेधे अनुनासिकस्य लोपः भवति. तदेव दर्शितं गिरिवेश्मयते. गिरिवेश्म इत्यस्मात् णिच् ततः क्विप्, इदानीं गिरिवेश्म इत्यस्ति, मकारः संयोगस्य अन्ते. अतः वचनारम्भपक्षे लोपे कृते गिरिवेट् गिरिवेश् इति शकारान्तं, तस्य षत्वे जष्ट्वे गिरिवेट् इति भवति. प्रत्याख्यानपक्षे तु झलः अपकर्षणाद्वा बहिरङ्गलक्षणाद्वा कृते तदा तु लोपः न भवति, गिरिवेश्म इत्येव भवति. एनी क्वेश्चन्स् इन् दिस्? Agre yano mayo dve vachye iti vartikam. Will somebody read out the mula? Yogesh Mahodaya, Madhya Shruyate va Pashyamaha.
Hello.
Yeah.
Hello.
Shruyate.
Pattika na drishyate. Astatam idhanim matsya margam asti.
चिंता नास्ति तत् अद्य तदेव मम सिग्नल् प्रोब्लम् अतः एव विलम्बेन आरब्धः तत्र स्क्रीन् शेरिङ्ग् कर्तुम् अशक्ता अहम्
उच्यते
तदेव मम स्क्रीन् शेरिङ्ग् मया अद्य कर्तुं न शक्यते मम कम्प्यूटर् बहु स्लो अस्ति इत्यतः भवतः समीपे मूलं नास्ति चेत् अहमेकं लिङ्क् प्रेषयामि चाट् मध्ये ततः मूलं डौन्लोड् कर्तुम् अर्हति भवान् चाट् मध्ये एकं लिङ्क् अस्ति तेन करोतु मन्दं करोतु इदानीम् अन्यः कोऽपि पठतु अग्रिमं भवान् पठितुम् अर्हति सरगोपन् महोदय
यणोमयो द्वेर्वच्ये वार्तिकम् इति पक्षः इति पक्षद्वयस्य अपि भाष्ये स्थितत्वात् इति भावः चत्वारि रूपाणि इति यत् तु वदन्ति दकार यकारोभयव उभयद्वित्वे उभयोः पुनर्द्वित्वे लोपविकल्पे अन्तरद्वित्वे च नवरूपाणि तथा हि एकदं त्रिता एकयं द्वियं त्रियं च एवं द्विधं त्रिधं च त्रिदेति न च अन्तरङ्गे द्वित्वे बहिरङ्गस्य यणः असिद्धत्वं त्रैपादिके अन्तरङ्गे बहिरङ्गपरिभाषा न प्रवर्तते इति विसर्जनीये सूत्रे भाष्ये कयटयोः व्यवस्थापितत्वात् इति अत्र इदं वक्तव्यम् पुनर्द्वित्वम् अशुद्धम् एकस्यां व्यक्तौ एकं लक्षणं सकृतेव प्रवर्तते इति एकः पूर्वपरयोः इति सूत्रे भाष्ये सिद्धान्तिदत्वात् अन्यथा द्वित्वानाम् आनन्त्यापत्तेः न च जरोजरी इति अलोयमां यमि लोपः इति च लोपेन निर्वाहः लोपस्य वैकल्पिकत्वात् कथम् अन्यथा त्रिदं त्रियं च इति भवदुक्तिः सङ्गच्छेत् किञ्च एवं सति सर्वस्य द्वे इति पुनः पुनः प्रवर्तते एव पुनः पुनः प्रवर्तत अत एव द्वितिधातोः अनभ्यासस्य इति सूत्रे अभ्यासग्रहणं भाष्ये प्रख्यातम् सन्नन्ताद्यङन्ताद्वा निचि चङि द्वित्व अभावार्थं तत् इति तु कयटादिभिः उक्तम् तस्मात् इह यजवा पञ्चमादीनि रूपाणि स्वीकुरु वा रूपान्यम् इति रूपानन्त्यम् इति नवत्ववृत्तिः असङ्गता एव सकारद्वित्वे द्वित्वेन अष्टौ विसर्गद्वित्वेन षोडश ైపాదికే అంతరంగే
ప్లీజ్
యదపి యుక్తం త్రైపాదికే అంతరంగే ఇత్యాది తదపి నార్కుటః నార్పత్యః ఇత్యత్ర విసర్గవారణాయ వృద్ధేహే అసిద్ధత్వస్య తత్రైవ భాష్యే స్పష్టత్వాత్ సంయోగాంతస్య లోపే యనః ప్రతిషేధః ఇత్యస్య బహిరంగత్వేన ప్రత్యాఖ్యాతత్వాత్ స్వయమపి తథా ఏవ అనూదితత్వాత్ చ తస్మాత్ ఇహ యథోద్దేశ పక్షః గ్రాహ్యః బహిరంగ పరిభాషాయాః అప్రవృత్తయే తథా చ భాష్యే మయః పరస్య యనోద్విత్వే తద్యత్ర ఇతి ఉదాహృతం న చ ఏవమపి ఇకో అసవర్ణే ఇతి సాకలేన రూపాంతరం అస్తు ఇతి వాచ్యం సమాసే తన్నిషేధ న చ నిత్య సమాసః ఏవ తన్నిషేధః ఇతి వాచ్యం భాష్యే నిత్యగ్రహణస్య ప్రత్యాఖ్యాతత్వం యథోత్తరం మునీనాం ప్రామాణ్యత్వం నను ఇక ఎనేవ దుర్లభ సుధీ శబ్దస్య ధ్యాయతే సంప్రసారణే నిష్పన్నత్వేన సంప్రసారణాచ్చ ఇతి పూర్వరూప ఆపత్తే ఇతి చేత్ న సంప్రసారణ పూర్వత్వేన సమానాంగ గ్రహణాత్ ఇతి వాచిక ఉక్తే సంప్రసారణస్త సంప్రసార స్థానికస్య సంప్రసారణ స్థానికస్య స్థానికస్య
అతథాత్వాచ్చ
అతథాత్వాచ్చ నచ ఏవమపి న భూసుదియోః ఇతి యన్ నిషేధః సంఖ్యః ఆంగత్వేన ప్రత్యయే పరతః ఏవ తస్య ప్రవృత్తేః అనంతస్య ఇతి న్యాయేన ఏరణగ్రాచః ఇతి వోసుపిః వోసుపి ఇతి చ సూత్రద్వయేన ప్రాప్తస్య ఏవ నిషేధాత్ అత్ర రేపస్య రేపస్య ద్వితన్న ద్విత ప్రకరణే దశాభ్యా నిమిత్త భావేన రేపస్య కార్యత్వ బాధా సూత్యుపాస్య ఇత్యాదౌ తు స్నానిత్వేన నిమిత్తత్వం ఇకః తస్మాత్ ఇత్యుత్తరస్య ఇత్యాది నిర్దేశాత్ జ్ఞాపకాత్ న బాధ్యతే ఇతి కయః తకారస్య తు భవతేవేత్యుక్తం తచ్చ వాహ తచ్చ వా ఇత్యతః తచ్చ వా ఇతి ఇత్యతః అత్ర రూపద్వయం లాకృతిః ఇతి
అలం. థ్యాంక్ యూ. యా థ్యాంక్ యూ అలం. యణో మయో ద్వే వాచ్యే నార్తికం. యణ మయ ఇతి ద్వయం శ్రూయతే ఉభయత్రాపి. యణ ఇతి పంచమీ, మయ ఇతి షష్ఠీ ఇతి ఏకః పక్షః. మయ ఇతి పంచమీ, యణ ఇతి షష్ఠీ ఇతి అపరః పక్షః. పక్షద్వయమపి భాష్యే అస్తి. అత్ర తు మయ ఇతి పంచమీ, యణ ఇతి షష్ఠీ ఇతి పక్షమాశ్రిత యణ నామ యకారస్య ద్విత్వం క్రియతే. తథా కృతే చత్వారి రూపాణి ఇతి కౌముద్యాం ప్రదర్శితాని. ఏకధం ఏకయం, ద్విధం ఏకయం, ఏకధం ద్వియం, ద్విధం ద్వియం. సో వి డోంట్ డూ ద్విత్వ ఫర్ బోత్, వి డూ ద్విత్వ ఫర్ వన్ ఈచ్ ఆర్ ఫర్ బోత్. సో యూ resultant will be four forms. Prakriya kaumudyam tu punaha dvittvam kriyate. Ekavaram ubhayoho dvittvam krutva punaha dhagarasya yakarasya ubhayoho dvittvam kriyate. Punaha ka lopaha sarvamasti annyadara navarupani sadhitani. Shows there ekadham tridha, ekayam dviyam triyam etc. So nine forms, resultant forms are shown. So basically by applying dvitva again for a second time, once you have applied dvitva, using the same sutra for the same varna, he has applied dvitva again, which is wrong. It's total. Punar dvitvam ashuddham. Ekasyam vyaktau ekam lakshanam satradeva pravartate. So that is the standard rule. The same rule on the same character or whatever, same syllable cannot operate twice. So using a different sutra, we can do the same karya. Dvitvameva yadi anyena sutrena prapnoti tarhi kartum shakyate. Ekenaiva sutrena ekasyaiva varanasya varanasamudayasya va punaha dvitiyavaram dvitvam nabhavati. So anyatha dvitvanam anantya pattehe. Anantyam antahaiva nasyat. Punaha dvitiyavaram kriyate chete. Punaha tatiyavaram, punashchaturthavaram, evam kartum shakyate. Anantyam bhavati, rupanantyam. Etadeva rupam iti vaktumeva na shakyate. Punah punaha dvittvam kartum shakyate. Nacha jharojhari halo yamam iti cha lopena nirvahaha. Jharojhari savarne iti ekaha varnaha lupyate. Athava halo yamam yami lopaha ityanena yam varnaha lupyate. Kintu ubhayam dvayamapi lopavidhayakam sutram vaikalpikam. It's only optional. So that is how he could derive the nine forms. From four to go to nine, it's only possible if dvitva has operated and there is no lopa. Otherwise, we cannot have a form with three dhakaras or three akaras. Once you have three, what will prevent it from becoming four, 10 or 100 or 1000 or whatever? You have to stop at the first step. Or if you go on, then you cannot stop it. It will lead to infinity. Okay. Sarvasya dve ityapi punah punah pravarteta. So all dvitva can happen again and again and again. Ataha etan nabhavati. Ata eva litidhato or anabhyasasya iti sutre abhyasa grahanam. Anabhyasasya dvittam vidhiyate. Abhyasaha nama purvobhyasaha. Dvitve krute tasya purvaha abhyasaha. Anabhyasasya dvittam iti sutre asti. Kinto anabhyasasya kimartham anabhyasasya iti ukchate. Ekavaram dvitve krute punah dvittvam na bhavati iti kintu tam na vaktavyam iti bhashye pratyakhyatam. Eto hi sakrut pravritti nyayena ekam lakshanam sakrudeva pravartate ityanena eva punardvittvam na bhavati ataha anabhyasasya iti na vaktavyam iti bhashyakarah tat pratyakhyatavan tasya prayojanantaram kayatadibhi darshitam yatra anyena sutrena dvittvam praptnoti tadapi na bhavati ityetadartham abhyasagrahanam iti anyaihi uktam. Kathanchirapi, ekasyam vyaktau, ekam lakshanam, sakradeva pravartate, ityasteva. Tasmadiha, tyajava panchamadini rupani, svikuruva rupanantyam. So either you stop at four, or you have to accept infinite forms, which is not acceptable to anybody. Ataha, navaktvoktiha asangataiva, navarupani iti kadapi na sambhavati. Okay. Sakaradvitvena ashtau, visargadvitvena shodasha, iti to anyadetat. So that is not concerned with the sandhi. The word upasyaha itself, sakarasya dhita vikalpaha punaha visargasya dhita vikalpaha bhavitu marhati tattu atra na pratutam. Okay. So one argument of nine forms is gone. There was one more which he said, nacha antarange dhitve bahirangasya anaha siddhatvam traipadike antarange bahiranga paribhasha na pravartate. So we already seen this again and again. Will paribhasha, bahiranga paribhasha act in the tripadi or not? So we also know the answer. Yathodesha pakshe na pravartate, karyakala pakshe pravartate. There are some cases where we do require bahiranga paribhasha to operate in the tripadi. As he shows, narkutaha narpatyaha ityatra nr kuta nr patya itisthute vriddhihi bhavati narkuta narpatya tatra kharvasani or visarjaniyaha ityanena refasya visargaha bhavati va iti prashne. Vriddheh asiddhatvath na bhavati iti uktam. Visarjaniya vidhayakam sutram tu tripadyameva asti. Tatra bahirangatvath vriddhihi asiddha iti uktam. So bahiranga paribhasha does operate in the tripadi. Similarly, sanyogantalope anah pratishedha iti vartike. Nama bahiranga lakshanat इति उक्तम्। तत्रापि त्रिपाद्यां बहिरंग परिभाषा प्रवर्तते कदा कार्यकाल पक्षाश्रयणे। सो वन्स यू टेक कार्यकाल पक्ष बहिरंग परिभाषा विल ऑपरेट इन द त्रिपादी। हियर इन केस ऑफ द्वित्वा यदि बहिरंग परिभाषा प्रवर्तते तर्हि द्वित्वं न स्यात्। बहिरंगस्य यणः सिद्धत्वा द्वित्वं न स्यात्, अतः यथोद्देशपक्षः ग्राह्यः। इन केस ऑफ द्वित्वा वी रिसॉर्ट टू यथोद्देशपक्ष सो दट बहिरंग परिभाषा विल नॉट प्रिवेंट द ऑपरेशन ऑफ द्वित्वा। तथा च भाष्ये मयः परस्य यणः द्वित्वे दध्यत्र, अतएव भाष्यकारः अपि दध्यत्र इत्यत्र यकारद्वित्वं उदाहरति यणोमयो द्वे वाच्ये। So that is about the Vartika Yanomayo Dvevachye. Now coming back to Sujjupasyaha. Sujjupasyaha ityatra kati rupani iti chintitam. Chatvari rupani eva navarupani na iti sadhitam. Iko savarne shakalyasya hraswascha iti ekamasti. Asava padanta ikaha asavarne achipare prakrityasyuhu hraswascha va chakri atra चक्री अत्र इति उदाहरणं दीयते। अत्र प्रकृतिभावः पाक्षिकः प्रकृतिभावः विधीयते चक्री अत्र इति। अत्रापि भवति वा सुधी उपास्यः इत्यत्र सुधी उपास्यः इति भवति वा इति प्रश्नः न भवति। समासे तन्निषेधात् न समासे इति वार्तिकं, वस्तुतः वार्तिकं न नित्यसमासे इत्यस्ति। नित्यसमासे न भवति शाकल्यविधिः इति, किन्तु भाष्यकारेण नित्यग्रहणं प्रत्याख्याय समासे सर्वत्र समासे शाकलविधिः न भवति इति उक्तम् यथोत्तरं मुनीनां प्रामाण्यम्। अनदर वेरी इम्पोर्टेंट प्रिंसिपल विच ऑपरेट्स अक्रॉस व्याकरण, यथोत्तरं मुनीनां प्रामाण्यम्। यत्र यत्र मतभेदः अस्ति पाणिनेः कात्यायनस्य अथवा कात्यायनस्य पतञ्जलेः, तत्र यथोत्तरं यः उत्तरमुनिः तस्यैव प्रामाण्यम्। सो पाणिन्यपेक्षया वार्तिककारस्य प्रामाण्यम्, उभयोरपेक्षया सूत्रवार्तिककारयोरपेक्षया भाष्यकारस्य प्रामाण्यम्। सो अगेन द फिफ्थ फॉर्म इन सुध्युपास्यः इज आल्सो प्रिवेंटेड बाय दिस। नाउ यणेव दुर्लभः, नाउ देयर इज समबडी क्वेश्चंस द फॉर्मेशन ऑफ सुध्युपास्यः, अत्र यणेव न भवति। सुधी इत्यत्र संप्रसारण निष्पन्नः ईकारः, ध्या ध्यै धातुः तत्र ध्या तत्र यकारस्य संप्रसारणे इकारः तस्य दीर्घः सुधी इति भवति। संप्रसारणात् अचिपरे पूर्वरूपम् इत्युच्यते, सो देयर इज पूर्वरूपम् एंड संप्रसारण इज फॉलोड बाय अच्। सुधी उपास्यः इति स्थिते यण्णेव न भवति किल इति प्रश्ने संप्रसारणपूर्वत्वे समान अङ्गग्रहणम् इति वार्तिकोक्तेः। सो देयर आर टू सोल्यूशंस टू दिस। एकं तु समानाङ्गग्रहणं, यत्र समाने अङ्गे उभयोः संप्रसारणं ततः अच् वर्तते तत्रैव पूर्वरूपम्। अत्र तु सुधी इति ईकारः भिन्नम् अङ्गं, भिन्नं पदं किल। उपास्यः इति उकारः भिन्ने पदे अस्ति, अतः अत्र पूर्वरूपं न भवति इति प्रथमः अंशः। द्वितीयं तु अत्र संप्रसारणं क्रियते, संप्रसारणस्य पूर्वरूपं ततः दीर्घः आदेशः क्रियते। संप्रसारणः तु इकारः एव, तस्य स्थाने दीर्घः आदेशः कृतः, सः संप्रसारणं न। स्थानिवदादेशः अनल्विधौ इत्युच्यते, अल्विधौ स्थानिवद्भावः नास्ति, अतः संप्रसारणस्थानिकस्य संप्रसारणस्य स्थाने यः आदेशः कृतः सः संप्रसारणं न, अतः संप्रसारणस्य इत्यस्य प्रवृत्तिरेव नास्ति, अतः सुध्युपास्यः इति रूपं सिध्यति। भूसुधियोः इति यणः निषेधः अस्ति, भू शब्दस्य सुधी शब्दस्य च यणादेशः न भवति इति। तदपि अत्र न प्रवर्तते, किमर्थम्? आङ्गत्वेन प्रत्यये परतः एव तस्य प्रवृत्तेः, तत्तु अङ्गकार्यम्। अङ्गकार्यम् इत्युक्ते प्रत्यये परे यणादेशः निषिध्यते इति प्रथमः अंशः। द्वितीयं तु अनन्तरस्येति न्यायेन एरनेकाचः इति ओसुपि इति च सूत्रद्वयेन प्राप्तस्यैव निषेधाच्च। अनन्तरस्यैव विधिर्वा भवति प्रतिषेधो वा इति न्यायः, तेन एरनेकाचो संयोगपूर्वस्य इति प्राप्तस्य यणः निषेधः, न तु इको यणसि इति प्राप्तस्य निषेधः। सो देर् आर् सेवरल् ऑब्जेक्शन्स् रेज्ड् टु द फार्मेशन् आफ् सुध्युपास्यः। अस्थिङ् शुद्ध्युपास्यः इति भवति वा, तत्र यण् भवति वा इति एकः प्रश्नः, अनन्तरं कति रूपाणि इति द्वितीयः प्रश्नः. सो यण् भवत्येव चत्वारि रूपाण्येव इति द्वयमपि दीक्षितैः साधितम्. एनी क्वेश्चन्स्? तत्रैव इकोळजि इत्यत्र अन्यानि उदाहरणानि, धात्रंशः इत्यत्र अत्र रेफस्य द्वित्वं न, यणोमयोद्वयवाच्येत्यनेन यथा शुद्ध्युपास्यः इत्यत्र यकारस्य द्वित्वं कृतं, तथा धात्रंशः इत्यत्र रेफस्य भवति वा इति प्रश्नः. द्वित्वप्रकरणे रहाभ्याम् इति साक्षात् श्रुतत्वेन निमित्तभावेन अचो रहाभ्याम् द्वे, रेफः काराभ्याम् परस्य द्वित्वं विधीयते, अतः रेफः द्वित्वे सर्वदा निमित्तमेव भवति, स्वयं रेफस्य द्वित्वं न भवति, रेफस्य हकारस्य वा द्वित्वं नास्ति. कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते इत्युच्यते, अतः कार्यिणः निमित्तं नास्ति, निमित्तस्य कार्यत्वं नास्ति, अतः रेफः द्वित्वे निमित्तमेव भवति, कार्यी अर्थात् स्वयं रेफस्य द्वित्वं न भवति. शुद्ध्युपास्यः इत्यत्रापि इको एणचि इत्यत्र अच् निमित्तम् इक् इति, उपास्यः इत्यत्र यः इक्वर्णः सः निमित्तमपि अस्ति, स्थानी अपि अस्ति, तत्र तु तस्मादित्युत्तरस्य इत्यादि निर्देशात्. सो इन् केस् आफ् यण् दट् डस् नाट् अप्लै बिकास् आफ् पाणिनियन् निर्देशास्, बट् फार् रेफा एण्ड् हकार देर् इस् नो द्वित्वम्. तकारस्य तु भवत्येव, वि आलरेडि सा दिस् दीर्घादाचार्याणाम् इति विकल्पेनैव इत्यादि दृष्टम्, अतः तकारस्य द्वित्वं भवति विकल्पेन, इत्यतः अत्र रूपद्वयं, धात्रंशः तकारद्वित्वेन एकं रूपं, तकारस्य द्वित्वाभावे अपरं, लाकृतिः इति तु एकमेव, लाकृतिः इत्यत्र द्वित्वं नास्ति. So that is the examples of Iko Enachi. We have finished Iko Enachi now. I mean, even though it starts as the first sutra, there are so many intervening sutras before we get to the examples of Iko Enachi. So that's it. Next, Halo Yamam Yamilopaha. So maybe Paul can read this from here. I think you should unmute yourself. You muted yourself.
Okay. Yeah?
Yeah.
Halo yamam lopaha syat va iti. Joho haha iti ataha ayantarasyam it अनुवृत्ते
अनुवृत्तेश्च
अनुवृत्तेः एतच्च लन् सूत्रे भाष्ये स्पष्टम् महात्म्यमिति अथ अत्र मलोपो नेत्यार्थः हलो यम हलो यराम यरि सवर्णे लोपः इति तु न सूत्रम् आर्ध्नोत् मूर्ध्नः शार्ङ्गम् आर्त्नि इत्यादौ रेफ
रेफात् परस्य
लोपापत्तेः.
या जस्ट् अ सेकेण्ड्, विल् डू दिस् एण्ड् यु केन् कण्टिन्यू. हलो यरां यदि सवर्णे लोपः, सो देर् इस् वास् जस्ट् वन् क्वेशन् रेस्ड् हियर्. हलो यमां यमि लोपः इति एकं सूत्रमस्ति, अग्रिमं सूत्रमस्ति झरोझरि सवर्णे आदौ यम वर्णस्य यमगणनम् ततः झभै इत्यालभ्य झर्वर्णस्य सवर्णे परे लोपः इति उच्यते. किमर्थं मिलित्वा हला हलो यराम यरि सवर्णे लोपः इति कर्तुं शक्यमासीत्. He could have combined the two sutras and made yaram yari savarne. Why separate the anunasikas first and then the jhar iti prashna ha? Tatra chate ardhnot. Ardhn. Dhakarat nakaraha parahasti. Murdhnaha ityatrapi tathaiva. Shangam. Nakarat gakaraha paraha. So in all these cases where there is a vargiya vyanjana and an anunasika, so there is no lopa. So even though it is savarna, parasparam savarnyam asti, kintu lopaha nasti. So that is why he separated the anunasikas first as yamam yami lopaha, tataha jharo jhari savarne. Yadi yaram yadi savarne lopaha ityuchyate, tarhi atrapi lopaha syat, rephat parasya, nama dhakarasya, atvangakarasya ityadi nam lopaha syat, tannivaranartham sutradvayam krutam. Okay, next. Paul?
Okay. Vanto yi yakarat iti visheshanam atmanasya atmanantasya sanya syat iti etat artha kasya yena vidhi iti sutrasya apavada bhutena yasmin vidhi tadadau al grahane iti Vartikena I am ato labhyate.
Vanto yi pratyaye tasti yi ityatra yakaradau pratyaye ityartha kriyate katham vidyate yasmin vidhihi tadadau algrahane yasmin vidhihi nama saptami nirdeshena yatra vidhihi asti algrahane tatcha saptami stha ekah varnah yi यकारः इत्यर्थः तत्र तदादि विधिः तदादौ अतः यकारादौ इत्यर्थः लभ्यते. अग्रे
औज्याद् ओरिति पूर्वसूत्रे तयोरेव वान्तौ प्रति स्यान्
स्थानित्वेन
Stanitvena nirnitvat ityartha. Nanu gavyutiriti atra hali sarvesham iti lopaha shakalyasya iti va lopaha syat iti ashankyaha. Vanta iti lavyamiti lunatehe achoyat sarvadatrukardatrukayoho iti gunaha avashya lavyamiti ora vyashyate iti nyat.
Yeah, so vanto yi pratyaye tyatra odau toho vakaranto vadeshu tatra odau toho vanto iti katham purvatra eso eva yavaha ityatra o au ityatrayoho av av saveva atrapi sthaninau iti पुनः गव्युतिः इत्यत्र लोपः लोपं निवारयितुं वकार प्लश्लेषः क्रियते. वान्तो ये प्रत्ययेति अथवा गोर्यूतौ छन्दसि इत्यत्र वकारस्य प्रश्लेषं कृत्वा श्रूयमाण वकारान्तः आदेशः, अतः गव्यूतिः इत्यत्र वकारस्य लोपः न भवति. And then he just gives how do you derive lavyam and avashya lavyam. And then the next is all again. You can just read. It's all prakriya. Kshayam iti.
Kshaya jayao shakyarthe. Kshayam iti. Shaki lingcha. Iti cha cha krityaha. क्षेयम् इति अर्हे कृत्यतृच्यश्च इति यत् हर एहीति इह ओम ओम ओमां अमांगोश्च इति पररूपं प्राप्तम्.
Yeah, next. Okay.
Uran Raparaha. Uran Raparaha. Antarantam Yaditi.
Repa shiraskasya r ityasya.
Repa shiraskasya r ityasya. Repa dvara rkarena stani. Stana samyat ityartha pakshe dvitvamiti riddehe dasyeti bhavah.
Krishna riddhihi ityatra rkarasya gunah nama ar iti. कथम इति चेत् रेफशिरस्कस्य अर् इत्यस्य रेफद्वारा ऋकारेण स्थानसाम्यात्. सो इट् इस् नाट् आर् हियर्, इट् इस् अर् एनीवे. अर् इति रपरत्वे कृते ऋकारेण स्थानसाम्यं भवति, अतः अन्तरतम्यात् कृष्णर्थिः इत्यत्र अर् तवल्कारः इत्यत्र अल् इत्युच्यते. तदेव पक्षे द्वित्वम् इत्यत्रापि कृष्ण ऋद्धिः इत्यत्र ऋधेः धकारस्य द्वित्वम् इति भावः. सो ऐ थिङ्क् विल् स्टाप् हियर् अण्ड् विल् कण्टिन्यू इन् द नेक्स्ट् क्लास्. होप्फुलि विल् कम्प्लीट् द रिव्यू आफ् मत्स्यन्दि प्रकरण इन् द नेक्स्ट् क्लास्. लेट् अस् सी. ओके, एनि क्वेश्चन्स् नौ? ध्यायन् ध्यायम् परम् ब्रह्म स्मारम् स्मारङ्गुरोर्गिरः सिद्धान्तकौमुदी व्याख्याम् कुर्मः प्रौढमनोरमाम्.